एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। सांवैधानिक परिषदः उपवेशः अद्यतन दिवसाय आउतो वर्तते। सिंहप्रसाद वर्तिनी प्रधानमन्त्री मन्त्री परिषदः कार्यालये अद्य सायं पञ्चवादने उपवेशा उपविशतीति सांवैधानिक परिषदः कार्यालयेन ज्ञापितं वर्तते। सर्वोच्च न्यायालयस्य प्रधान न्यायाधीशस्य नियुक्ति प्रक्रियाम् अग्रेसारयितुं सांविधानिक परिषद अध्यक्षस्य प्रधानमन्त्रिण बालेन्द्र शाहस्य निर्देशनस्य अनुसारेण परिषद उपवेश अद्यतन दिवसाय निर्धारितो वर्तते। उपवेशे सहभागितायै सभामुख डोलप्रसाद अरियाल, राष्ट्रिय सभाया अध्यक्ष नारायण प्रसाद दाहाल, विधि न्याय संसदीय विषय मन्त्री शोभिता गौतम, प्रतिनिधि सभायां विपक्षी दलस्य नेता भीष्मराज आङदेम्बे, उपसभामुख रूबी कुमारी च आहुता सन्ति। सचिवालयेन ज्ञापितं वर्तते। प्रधानमन्त्री मन्त्री परिषद कार्यालयेन पूर्व विशिष्ट पदाधिकारीभि प्रयुक्तानां यातायात साधनानां यथार्थ विवरणं प्रदातुं गृहमन्त्रालयः निर्दिष्टोऽस्ति। प्रधानमन्त्री कार्यालयेन विहितेन पश्चात्तनाध्ययनेन कतिपयैः पूर्व विशिष्टैः पदाधिकारिभिः विदितः निश्चिताद् अधिकानां यातायात साधनानां प्रयोगः विधीयमानोऽस्ति। पृथक् पृथक् निकायेभ्यः द्वितयं सौविध्यं गृहमाणम् अस्ति। तथ्यस्य प्राप्तेः पश्चात् गृहमन्त्रालयात् एवं विवरणं याचितं वर्तते। पत्रे पूर्वराष्ट्रपतिभिः, पूर्वोपराष्ट्रपतिभिः, पूर्व प्रधानमन्त्रिभिः, पूर्व प्रधान न्यायाधीशैः, पूर्वसभामुखै, राष्ट्रियसभाया पूर्वाध्यक्षैश्च गृहीतानां सौविध्यानां यथार्थ विवरणं प्रेषयितुं निर्दिष्टमस्तीति प्रधानमन्त्रिणः संचारानुसन्धान विज्ञ दीपा दाहालः असूचयत्। संविधानस्य संशोधनाय विमर्शनपत्रस्य निर्माणार्थं संघटितेन कार्यदलेन ह्य पूर्व न्यायाधिवक्तृभिः विधिक्षेत्राणां विज्ञैश्च सह विमृष्टं वर्तते। सिंहप्रसाद वर्तिनी प्रधानमन्त्री मन्त्रिपरिषद कार्यालये सम्भूते विमर्शने सहभागिभिः पूर्व न्यायाधिवक्तृभिः विधिक्षेत्राणां विज्ञैश्च शासकीय स्वरूपस्य निर्वाचन प्रणाल्याः, संघीय संरचनायाः, न्यायपालिकायाः पुनः संरचनायाः, सांविधानिक निकायानां संख्यायाः, समावेशितायाश्च विषयेषु धारणा उपस्थापिता आसीत्। विमर्शने पूर्व महान्यायाधिवक्तारः डाक्टर युवराज संग्रौला, सविता भण्डारी, रमन कुमार श्रेष्ठ, मुक्तिनारायण प्रधान, महादेव प्रसाद यादव, अग्निप्रसाद खरेल चेत्यादयो जनाः धारणाम् उपस्थापितवन्तः आसन्। सर्वकारेण वरिष्ठ चिकित्सक, चिकित्सा शिक्षाविच्च प्राध्यापक डाक्टर जगदीश प्रसाद अग्रवाल, प्रधानमन्त्रिण बालेन्द्र शाहस्य अवैतनिक स्वास्थ्य परामर्शदातृपदे नियुक्तो वर्तते। मन्त्रिपरिषद उपवेशेन डाक्टर अग्रवाल इत्यमुम् अवैतनिक स्वास्थ्य परामर्शदातृपदे नियोक्तुं निर्णीतमस्तीति प्रधानमन्त्रिण संचारानुसन्धान विज्ञ दीपा दाहाल असूचयत्। त्रिभुवन विश्वविद्यालयस्य चिकित्सा शास्त्राध्ययन संस्थानस्य पूर्व डीन पदे च कार्यं कृतवान् डाक्टर अग्रवाल देशस्य स्वास्थ्यनीतेः, सार्वजनिक स्वास्थ्य सेवायाः समाह्वयानां, चिकित्सा शिक्षायाः सुधारस्य च कृते प्रधानमन्त्रिणे साहाय्य आवश्यकं परामर्शनं प्रदास्यति। प्रतिनिधिसभायां राष्ट्रपदलात् प्रतिनिधित्वं कुर्वतां सांसदानां, सम्बद्ध मन्त्रालयानां, मन्त्रिणां च मध्ये आगामिनः आयव्ययकस्य, विनियोजनस्य, सर्वकारीय कार्यक्रमाणां च विषयेषु विमर्शनं सम्भूतमस्ति। राष्ट्रपदलस्य संसदीय दलस्य सिंहप्रसाद वर्तिनी कार्यालये ह्य भौतिक योजना मन्त्रालयात्, अर्थमन्त्रालयात् च विनियोजनीयस्य, आयव्ययकस्य, अस्य प्राथमिकतायाश्च विषयेषु सम्बद्ध मन्त्रिणां सह मन्त्रिभ्यां सह विमर्शनं सम्भूतं वर्तते। सर्वकारेण सर्वकारीय सेवायां विद्यमानानां स्वास्थ्यसेवायाः राष्ट्रियस्तरस्य द्वादशानां श्रमिक संघटनानां पञ्जीकरणं निरस्तीकृतं वर्तते। श्रम व्यवसाय जन्य सुरक्षा विभागेन पूर्वेद्युः चतुस्सप्तत्युत्तर द्विसहस्रतम विक्रमवर्षीयस्य नेपाल सर्वकारीय सेवाधिनियमस्य अन्तर्गतानाम् अष्टानां, त्रिपञ्चाशदुत्तर द्विसहस्रतम विक्रमवर्षस्य नेपाल स्वास्थ्य सेवाधिनियमस्य अन्तर्गतानां चतुर्णां च श्रमिक संघटनानां पञ्जीकरणं निरस्तीकृतं वर्तते। वर्तमान सर्वकारेण कत्पिचिद नेपालाधिनियमान् संशोधयितुं निर्मितस्य एतद् विक्रमवर्षीयस्य अध्यादेशस्य माध्यमेन सार्वजनिक सेवायां विद्यमानानां श्रमिक संघटनानां व्यवस्थायाः निरसनानन्तरं एतावतां कर्मचारी संघटनानां पंजीकरणं निरस्तीकृतं वर्तते। महिला बाल बालिका ज्येष्ठ नागरिक मन्त्री सीतावादी बालाधिकार सम्बद्धस्य सीआरसी नाम्नः कन्भेन्सन अन द राइट्स अफ द चाइल्ड नाम्नः संयुक्त राष्ट्र संघीय महासन्धेः प्रतिवेदनस्य निर्माणस्य प्रक्रियां प्रभावकारी रूपेण अग्रे वर्धयितुं मन्त्रालयः प्रतिबद्धोऽस्तीति सूचयति। मन्त्रालयेन ह्य काष्ठमण्डपे आयोजिते सीआरसी सन्देहे प्रतिवेदनस्य निर्माणस्य प्रक्रियाया अभिमुखीकरण कार्यक्रमे मन्त्रीवादी एवं प्रतिबद्धतां व्यक्तवती। नेपाली कांग्रेस दलस्य सभापतिः गगन कुमार थापा भासते संविधानस्य आशयस्य विपरीततया सर्वकारेण सांविधानिक परिषद सम्बद्धादेशः क्रियान्वितोऽस्तीत्यतः अस्य कार्यस्य विपक्षे कांग्रेसदलं वर्तते। दलस्य सांसदेभ्य ह्य संसदीय दलस्य सिंहप्रासादवर्तिनी कार्यालये प्रशिक्षणं प्रदाय बहिरागमनस्य क्रमे सभापतिः थापा सर्वकारेण अध्यादेशः आनेतुं शक्यते परं संविधानस्य परिधिम् अतिक्रान्तुं न शक्यते इति विचारं व्यक्तवान्। कृषि सहकारी प्राकृतिक स्रोत समित्या आन्तरोपवेश कार्यविधेः अध्ययनाय सप्तसदस्यीयाम् उपसमितिं संघटयितुं निर्णीतं वर्तते। समितेः ह्यस्तनोपवेशेन संयोजकेन सहितायाः सप्तसदस्यात्मिकायाः उपसमितेः संघटनाय निर्णीतं वर्तते। उपसमितौ दलीयाधारेण रासपा दलस्य त्रय नेपाली कांग्रेस दलस्य नेकपा एमाले दलस्य नेपाली कम्युनिष्ट दलस्य राष्ट्रिय प्रजातन्त्र दलस्य च प्रतिदलं एकैकं जनाः सदस्याः भवन्तीति समितेः सभापतिः अशोक कुमार चौधरी अज्ञापयत्। सांसदाः स्वदेशीयानाम् उत्पादनानां प्रयोगस्य वर्धनाय कृषकाणां रासायनिकमलस्य समस्यायाः समयेव समाधानाय च बलं दत्तवन्तः। उपराष्ट्रपतिना रामसहाय प्रसाद यादवेन सह नेपालस्य कृते नर्वेदेशस्य राजदूतेन ड्याङ्नी मियोस इत्यनया मेलवार्ता विहितास्ति। लयञ्चोरवर्तिनी उपराष्ट्रपते कार्यालये ह्य सम्भूते मेलने नेपाल नर्वे देशयो द्विपक्षीयस्य सम्बन्धस्य विविधेषु विषयेषु विमृष्टम् आसीत्। इति समाचाराः।